इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्याः भारतमण्डपम् इत्यत्र ICA इत्यस्य वैश्विकसहकारिसम्मेलनम् इत्यस्य उद्घाटनं करिष्यति। अन्ताराष्ट्रियसहकारिसङ्घटनस्य त्रिंशदुत्तरैकशतवर्षेषु प्रथमतया अस्योपवेशनं समाचर्यते। उपवेशनेऽस्मिन् भूटानदेशस्य प्रधानमन्त्री दाशो शेरिंग तोबगे, फिजीदेशस्य च उपप्रधानमन्त्री मनोवा कामी कामिका इत्यपि भागं भजिष्यतः। अस्मद्वार्ताहरैः निगदितं यत् वैश्विकसम्मेलनस्य आयोजनं भारतीय कृषक उर्वरक सहकारिसङ्घः, वैश्विकसहकारिसङ्घः, भारतसर्वकारः, भारतीयसहकारिसमित्यः, अमूल अथ च क्रिभको इत्येतैः सहयोगात्मकरूपेण सम्मिल्य समाचर्यते। संसदः शीतकालीनसत्रम् अद्यारभ्य समारभते। सत्रेऽस्मिन् षड्विंशतिदिवसेषु एकोनविंशत्यः उपवेशनानि समाचरिष्यन्ते। नवम्बरमासस्य षड्विंशे दिनाङ्के संविधानदिवसावसरे उपवेशनस्य आयोजनं न भविष्यति। संविधानदिवसस्य मुख्यसमायोजनं सदनस्य केन्द्रीयकक्षे भविष्यति, यत्र एकोनपञ्चाशदुत्तरैकोनविंशतितमवर्षस्य षड्विंशे नवम्बरे संविधानम् अङ्गीकृतमासीत्। विदेशमन्त्री डॉक्टर एस जयशंकरः रोमदेशे G7 इत्यस्य विदेशमन्त्रिणां सम्पर्कात्मककार्यक्रमे अद्य सहभागितां विधास्यति। आयोजनमिदं इटलीदेशस्य फ्यूग्गी इत्यत्र क्रियते। भारतदेशस्य च अत्र अतिथिदेशत्वेन समाहूतोऽस्ति। अवसरेऽस्मिन् विदेशमन्त्री अन्येषु विशिष्टेषु गतिविधिष्वपि प्रातिभाग्यं विधास्यति। COP 31 इत्यनेन बाकू अजरबैजान इत्येतादृशयोः विकासशीलदेशयोः जलवायुवित्तस्य साम्प्रतिकं स्तरं त्रिगुणितं करणाय सन्धिपत्रं स्वीकृतम्। वरिवर्धितश्च राशिः त्रिशत बिलियन डॉलर परिमितं कारयिष्यते। परं भारतेन न केवलं निर्धारितराशेः सहैव सहमत्याः विधायामपि सुदृढतरः विरोधः प्रदर्शितोऽस्ति। भारतीयवार्ताकारया चान्दनी रैना इत्यनया प्रोक्तं यत् भारतम् इमं प्रस्तावस्य साम्प्रतिकं स्वरूपं न स्वीकरोति। क्रिकेट निकषस्पर्धायाम् ऑस्ट्रेलियायाः पर्थ क्रीडाङ्गणे क्रीडायाः तृतीये दिवसे ह्यः यशस्वी विराटयोः शतकाभ्यां भारतस्य स्थितिः सुदृढतरा जातास्ति। बॉर्डर गावस्कर ट्रॉफी इत्याख्येऽस्मिन् द्वन्द्वे आतिथ्यं स्वीकुर्वता दलेन तृतीयदिवसस्य क्रीडान्तं यावत् क्रमशः 12 धावनाङ्कानां संयोजने एव क्रीडकत्रयः पातितः। सम्प्रति आतिथ्यं प्रददात्रा दलेन इतोऽपि 22.5 धावनाङ्कानि 7 क्रीडकानां पतनात् प्रागेव रचितव्यानि सन्ति। इतः पूर्वं भारतीयदलेन 6 क्रीडकानां हानावेव 87.4 धावनाङ्कानि विरच्य आहत्य 34.5 धावनाङ्कानां वृद्धिः सम्प्राप्तासीत्। इति वार्ताः।